अथ श्रीमत्सुंदरकांडे एकादश सर्ग। अवधूय चतां बुद्धिं बभूवावस्थितस्तदा जगाम च परां चिन्तां सीतां प्रति महाकपिः नरामेण वियुक्ता सा स्वप्तुमर्हति भामिनी न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुं नान्यं नरमुपस्थातुं सुराणामपि चेश्वरं न हि रामसमः कश्चित् विद्यते त्रिदशेष्वपि अन्येयमिति निश्चित्य भूयस्तत्र चचारसः पानभौमौ हरिश्रेष्ठः सीतासन्दर्शनोत्सुकः क्रीडितेनापराः क्लान्ता गीतेन च तथापराः नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः तथा स्तरणमुख्येषु संविष्टाश्चापरा स्त्रियः अङ्गनानां सहस्रेण भूषितेन विभूषणैः रूपसंलापशीलेन युक्तगीतार्थभाषिणा देशकालाभियुक्तेन युक्तवाक्याभिधायिना रताभिरतसंसुप्तं ददर्श हर्योथपः अन्यत्रापि वरस्त्रीणां रूपसंलापशालिनां सहस्रं युवतीनां तु प्रसुप्तं स ददर्शः तासां मध्ये महाबाहुः सुसुभे राक्षसेश्वरः गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः सराक्षसेन्द्रः सुसुभे ताभिः परिवृतः स्वयं करेणुभिर्यथारण्ये परिकीर्णो महात्यपः सर्वकामैरुपेताञ्च पानभूमिं महात्मनः ददर्श हरिशार्दूलः तस्य रक्षःपतेर्गृहे मृगाणां महिषाणाञ्च वराहाणाञ्च भागशः तत्रन्यस्तानि मांसानि पानभौमौ ददर्शसः रौक्मेषु च विशालेषु भाजनेष्वर्थभक्षितान् ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् शल्यान् मृगमयूरांश्च हनुमान् अन्ववैक्षत क्रकरान् विविधान् सिद्धान् चकोरान् अर्धभक्षितान् महिषान् एकशल्यांश्च छागांश्च कृतनिष्ठितान् लेह्यान् उच्चावचान् पेयान् भोज्यानि विविधानि च तथाम्ललवणोत्तंसैः विविधैरागषाढवैः हारनूपुरकेयूरैः अपविद्धैः महाधनैः पानभाजनविक्षिप्तैः फलैश्च विविधैरपि कृतपुष्पोपहाराभूः अधिकं पुष्यति श्रियं तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः पानभूमिर्विनावह्निं प्रदीप्तेवोपलक्ष्यते बहुप्रकारैर्विविधैः वरसंस्कारसंस्कृतैः मांसैः कुशलसम्पृक्तैः पानभूमिगतैः पृथक् दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि शर्करासवमाध्येकपुष्पासवफलासवाः वासचूर्णैश्च विविधैः दृष्टास्तैस्तैः पृथक् पृथक् सन्ततासु सुभे भूमिः माल्यैश्च बहुसंस्थितैः हिरण्मयैश्च विविधैः भाजनैः स्फाटिकैरपि जाम्बूनदमयैश्चान्यैः करकैरपि संवृता राजतेषु च कुम्भेषु जाम्बूनदमयेषु च पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्शः सोपस्यच्छातकुम्भानि सीधोर्मणिमयानि च राजतानि च पूर्णानि भाजनानि महाकपिः क्वचिदर्थावशेषाणि क्वचित् पेतानि सर्वशः क्वचिन्नैव प्रपीतानि पानानि स ददर्शः क्वचित् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः क्वचिदन्नावशेषाणि पश्यन् वै विचचारः क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैः घटैः क्वचित् सम्पृक्तमाल्यानि जलानि च फलानि च शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः परस्परं समाश्रिष्य काश्चित् सुप्तावराङ्गना काश्चिच्च वस्त्रमञ्जस्याः स्वपन्त्याः परिधाय च आहृत्य च बलाः सुप्ता निद्राबलपराजिताः तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजं नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलं चन्दनस्य च शेतस्य सीधोर्मधुरसस्य च विविधस्य च माल्यस्य धूपस्य विविधस्य च बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् रसानां चन्दनानाञ्च धूपानाञ्चैव मूर्च्छितः प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा श्यामावदातास्तत्राण्याः काश्चित् कृष्णावराङ्गनाः काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदाराक्षसालये तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितं पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि एवं सर्वमशेषेण रावणान्तःपुरं कपिः ददर्श सुमहातेजा न ददर्श च जानकीं निरीक्षमाणश्च तदा ता स्त्रियः स महाकपिः जगाम महतीं शङ्कां धर्मसाध्वस शङ्कितः परदारावरोधस्य प्रसुप्तस्य निरीक्षणं इदं खलु ममात्यर्थं धर्मलोपं करिष्यति न हि मे परदाराणां दृष्टिर्विषयवर्तिनी अयञ्चात्र मया दृष्टः परदारपरिग्रहः तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्यनः निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः न हि मे मनसः किञ्चित् वैकृत्यमुपपद्यते मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने शुभाशुभास्वस्थासु तच्च मे सुव्यवस्थितम् नान्यत्र हि मया शिक्या वैदेही परिमार्गितुम् स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे यस्य सत्त्वस्य या योनिः तस्यां तत्परिमार्ग्यते न शिक्या प्रमदा नष्टा मृगेषु परिमार्गितुम् तदिदं मार्गितं तावत् शुद्धेन मनसा मया रावणान्तःपुरं सर्वं दृश्यते न च जानकी देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् अवेक्षमाणो हनुमान् नैवापश्यत जानकीं ताम् अपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः अथ द्वादशः सर्गः सतस्य मध्ये भवनस्य मारुतिः लतागृहांश्चित्रगृहान् निशागृहान् जगामसेतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनां सचिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य तां ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली साराक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती अनेन नूनं प्रतितुष्टकर्मणा हता भवेदार्यपथे परे स्थिता विरूपरूपा विकृता विवर्चसो महाननादेऽर्घविरूपदर्शनाः समीक्ष्य सा राक्षसराजयोषितो भयाद्विनिष्टा जनकेश्वरात्मजा सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरं नमेस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवंश्च वानरः दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः न सीता दृश्यते साध्वी वृथा जातो मम श्रमः किन्नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः गत्वा तत्र त्वया वेर किं कृतं तद्वदस्सनः अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजां ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सह गतं पारं समुद्रस्य वानराश्च समागताः अनिर्वेदश्रियो मूलम् अनिर्वेदः परं सुखं भूयस्तत्र विचेष्यामि न यत्र विचयकृतः अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः करोति सफलं जन्तोः कर्म यत्तत्करोति सः तस्मादनिर्वेदकृतं यत्रं चेष्टेऽहमुत्तमम् अदृष्टांश्च विचेष्यामि देशान् रावणपालितान् आपानशाला विचिताः तथा पुष्पगृहाणि च चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च निष्कुटान्तररथ्याश्च विमानानि च सर्वशः इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे भूमिगृहांश्चैत्यगृहान् गृहातिगृहकानपि उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः അപാവൃണ്മോശ്ചദ്വാരാണി കവാടാന്യവഘാടയൻ പ്രവിശൻ നിഷ്പതംശ്ചാപി പ്രപതന്നുത്പതന്നപി സർവമപ്യവകാശം സ വിചചാര മഹാകപി ചതുരങ്കുളമാത്രോപി നാവകാശസ്സ വിദ്യതേ രാവണാന്തഃപുരേ തസ്മിൻ യങ്കപിർനജഗാമസഃ പ്രാകാരാന്തരരഥ്യാശ്ച വേദികാശ്ചൈത്യസംശ്രയാഃ ദീർഘികാഃ പുഷ്കരിണ്യശ്ച സർവം തേനാവലോകിതം രാക്ഷസ്യോ വിവിധാകാരാ വിരൂപാ വികൃതാസ്തഥാ ദൃഷ്ടാ ഹനുമതാ തത്ര നതു സാ ജനകാത്മജാ രൂപേണാപ്രതിമാലോകേ വരാ വിദ്യാധരസ്ത്രിയഃ ദൃഷ്ടാ ഹനുമതാ തത്ര നതു രാഘവനന്ദിനീ നാഗകന്യാ വരാരോഹാഃ പൂർണചന്ദ്രനിഭാനനാഃ ദൃഷ്ടാ ഹനുമതാ തത്ര നതു ശ്വേതാ സുമധ്യമാ പ്രമഥ്യരാക്ഷസേന്ദ്രേണ നാഗകന്യാവലാധൃതാഃ ദൃഷ്ടാ ഹനുമതാ തത്ര നസാ ജനകനന്ദിനീ സോപശ്യംസ്താം മഹാബാഹുഃ പശ്യംശ്ചാന്യാവരസ്ത്രിയഃ വിഷസാദമൂർധീമാൻ ഹനുമാൻ മാരുതാത്മജഃ ഉദ്യോഗം വാനരേന്ദ്രാണാം പ്ലവനം സാഗരസ്യ ച വ്യർത്ഥം വീക്ഷ്യാനിലസുതഃ ചിന്താം പുനരുപാഗമത് അവതീര്യ വിമാനാച്ച ഹനുമാൻ മാരുതാത്മജഃ ചിന്താമുപജഗാമാഥ ശോകോപഹതചേതസഃ ഇത്യാർഷേ ശ്രീമദ് രാമായണേ വാൽമീകിയേ ആദികാവ്യേ സുന്ദരകാണ്ഡേ ദ്വാദശ സർഗഃ അഥ ത്രയോദശ സർഗഃ വിമാനാത്തു സുസംക്രമ്യ പ്രാകാരം ഹരിയോഥഭഃ ഹനുമാൻ വേഗവാനാസീത് യഥാ വിദ്യുദ്ഘനാന്തരേ സംപരിക്രമ്യ ഹനുമാൻ രാവണസ്യ നിവേശനാത് അദൃഷ്ട്വാ ജാനകീം സേതാം അബ്രവീദ്വചനം കപിഹി ഭൂയിഷ്ഠം ലോലിതാലങ്ക രാമസ്യ ചരതാപ്രിയം നഹി പശ്യാമി വൈദേഹീം സേതാം സർവാംഗശോഭനാം പൽവലാനി തടാകാനി സരാംസി സരിതസ്തഥാ നദ്യോ നോപവനാന്താശ്ച ദുർഗാശ്ച ധരണീധരാഃ ലോലിതാ വസുധാ സർവാ നതു പശ്യാമി ജാനകീം ഇഹ സംപാതിനാ സേത രാവണസ്യ നിവേശനേ ആഖ്യാത ഗുരുധ്രരാജേന നച പശ്യാമി താമഹം കിന്നു സേതാഥ വൈദേഹി മൈഥിലീ ജനകാത്മജ ഉപതിഷ്ഠേത വ്യവശ രാവണം ദുഷ്ടചാരിണം ക്ഷിപ്രമുത്പതതോ മന്യേ സേതാമാദായ രാക്ഷസഃ ബിഭ്യതോ രാമബാണാനാം അന്തരാ പതിതാ ഭവേത് അഥവാ ഹ്രിയമാണായാഃ പഥി സിദ്ധനിഷേവിതേ മന്യേ പതിതമാര്യായ ഹൃദയം പ്രേക്ഷ്യസാഗരം രാവണസ്യോരുവേഗേന ഭുജാഭ്യാം പീഡിതേന ച തയാ മന്യേ വിശാലാക്ഷ്യ ത്യക്തം ജീവിതമാര്യയ ഉപര്യുപരി വാനോനം സാഗരം ക്രമതസ്തദാ വിചേഷ്ടമാനാ പതിതാ സമുദ്രേ ജനകാത്മജ അഹോ ക്ഷുദ്രേണ വാനേന രക്ഷന്തി ശീലമാത്മനഃ അബന്ധുർഭക്ഷിതാ സേത രാവണേന തപസ്വിനി അഥവാ രാക്ഷസേന്ദ്രസ്യ പത്നീഭിരസിതേക്ഷണ അദുഷ്ടാദുഷ്ടഭാവാഭിഃ ഭക്ഷിതാ സാ ഭവിഷ്യതി സമ്പൂർണചന്ദ്രപ്രതിമം പദ്മപത്രനിഭേക്ഷണം രാമസ്യ ധ്യായതി വക്ത്രം പഞ്ചത്വം കൃപണാഗത ഹാ രാമ ലക്ഷ്മണേത്യേവം ഹായോധ്യേ ചേതി മൈഥിലി വിലപ്യ ബഹു വൈദേഹി ന്യസ്തദേഹാ ഭവിഷ്യതി അഥവാ നിഹിത മന്യേ രാവണസ്യ നിവേശനേ നോനം ലാലപ്യതേ സേത പഞ്ജരസ്ഥേവശാരിക ജനകസ്യ സുതാ സേത രാമപത്നീ സുമധ്യമ കഥമുത്പല പത്രാക്ഷി രാവണസ്യ വശം വ്രജേത് വിനഷ്ടാവാ പ്രണഷ്ടാവാ മൃതാവാ ജനകാത്മജ രാമസ്യ പ്രിയ ഭാര്യസ്യ ന നിവേദയിതും ക്ഷമം നിവേദ്യമാനേ ദോഷസ്യാത് ദോഷസ്യാദനിവേദനേ കഥന്നു കലു കർത്തവ്യം വിഷമം പ്രതിഭാതി മേ അസ്മിന്നേവം ഗതേ കാര്യേ പ്രാപ്തകാലം ക്ഷമം ചകിം ഭവേദിതി മതം ഭൂയോ ഹനുമാൻ പ്രവിചാരയത് യതി സേതാമദൃഷ്ട്വാഹം വാനരേന്ദ്രപുരീമിതഃ ഗമിഷ്യാമി തതഃ കോ മേ പുരുഷാർത്ഥോ ഭവിഷ്യതി മമേദം ലംഘനം വ്യർത്ഥം സാഗരസ്യ ഭവിഷ്യതി പ്രവേശശ്ചൈവ ലങ്കായ രാക്ഷസാനാഞ്ച ദർശനം കിം മാം വക്ഷ്യതി സുഗ്രീവോ ഹരയോ വാ സമാഗതാഃ കിഷ്കിന്ധാം സമനുപ്രാപ്തം തൗവാ ദശരഥാത്മജൌ ഗത്വാ തു യദി കാകുത്സം വക്ഷ്യാമി പരമപ്രിയം നദൃഷ്ടേതി മയാ സേത തതസ്ത്യക്ഷ്യതി ജീവിതം പരുഷം ദാരുണം क्रोरम तीक्ष्णमिन्द्रियतापनम सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति तन्तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं भुजानुरक्तो मेधावी न भविष्यति लक्ष्मणः विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः कौसल्या च सुमित्रा च कैकेयी च न संशयः कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितं दुर्मना व्यथिता दीना निरानन्दा तपस्विनी पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितं वालिजेन तु दुःखेन पीडिता शोककर्षिता पञ्चत्वञ्च गते राज्ञि तारापि न भविष्यति माता पित्रोर्विनाशेन सुग्रीवव्यसनेन च कुमारोऽप्यङ्गदः कस्मात् धारयिष्यति जीवितं भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च सान्त्वेनानुप्रदानेन मानेन चेशिष्यिना लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः न वनेषु न शैलेषु न निरोधेषु वा पुनः क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः स्वपुत्रदारा सामात्या भर्तृव्यसनपीडिताः शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः घोरमारोदनं मन्ये गते मयि भविष्यति इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसां सोऽहन्नैव गमिष्यामि किष्किन्धां नगरीमितः न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ आशया तौ धरिष्येते वानराश्च मनश्चिनः हस्तादानो मुखादानो नियतो वृक्षमूलिकः वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजां सागरानोपजे देशे बहुमूलफलोदके चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः शरीरं भक्षयिष्यन्ति वायसास्यापदानि च इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीं सुजातमूला स्वभगा कीर्तिमाला यशस्विनी प्रभग्ना चिररात्रियं मम सीतामपश्यतः तापसो वा भविष्यामि नियतो वृक्षमूलिकः नेतः प्रतिगमिष्यामि तामदृष्ट्वा असिते क्षणां यदीतः प्रतिगच्छामि सीतामनधिगम्यताम् अङ्गतः सह तैः सर्वैः वानरैः न भविष्यति विनाशे बहवो दोषाः जीवन्भद्राणि पश्यति तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः एवं बहुविधं दुःखं मनसा धारयन् मुहुः नाध्यगच्छत्तदापारं शोकस्य कपिकुञ्जरः ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः रावणं वा वधिष्यामि दशग्रीवं महाबलं काममस्तु हृता सीता प्रत्याचर्णं भविष्यति अथ वैनं समुक्षिप्य ह्युपर्युपरिसागरं रामायोपहरिष्यामि पशुपतेरिव इति चिन्तां समापन्नः सीतामनधिगम्यतां ध्यानशोकपरीतात्मा चिन्तयामास वानरः यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीं तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम् अपश्यन् राघवो भार्यां निर्दह्यत् सर्ववानरान् इहैव नियताहारो वत्स्यामि नियतेन्द्रियः न मत्कृते विनश्येयुः सर्वे ते नरवानराः अशोकवनिका चेयं दृश्यते या महाद्रुमा इमामधिगमिष्यामि न हीयं विचिता मया वसून् रुद्रांस्तथादित्यान् अश्विनौ मरुतोऽपि च नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः जित्वा तु राक्षसान् सर्वान् इक्ष्वाकुकुलनन्दिनीं सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः वदतिष्ठन् महातेजा हनुमान्मारुतात्मजः नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै നമോസ്തു രുദ്രേന്ദ്രയമാനിലേഭ്യോ നമോസ്തു ചന്ദ്രാർക്കമരുദ്ഗണേഭ്യഃ സതേഭ്യസ്തു നമസ്കൃത്യ സുഗ്രീവായ ച മാരുതിഃ ദിശഃ സർവാഃ സമാലോക്യ ഹ്യശോകവനികാം പ്രതി സഗത്വാ മനസാ പൂർവം അശോകവനികാം ശുഭാം ഉത്തരം ചിന്തയാമാസ വാനരോ മാരുതാത്മജഃ ധ്രുവം തു രക്ഷോ ബഹുള ഭവിഷ്യതി വനാകുല അശോകവനികാ ചിന്ത്യ സർവസംസ്കാര സംസ്കൃത രക്ഷിണശ്ചാത്ര വിഹിത നോനും രക്ഷന്തി പാദപാൻ ഭഗവാനപി സർവാത്മാ നാതിക്ഷോഭം പ്രവാതി വൈ. സംക്ഷിപ്തോയം മയാത്മാ ച രാമാർത്ഥേ രാവണസ്യ ച സിദ്ധിം മേ സംവിധാസ്യന്തി ദേവാഃ സരിഷിഗണാസ്ത്വിഹ ബ്രഹ്മാ സ്വയംഭൂർഭഗവാൻ ദേവാശ്ചൈവ ദിശന്തു മേ സിദ്ധിമഗ്നിശ്ച വായുശ്ച പുരുഹൂതശ്ച വജ്രഭൃത് വരുണഃ പാശഹസ്തശ്ച സോമാദിത്യൌ തഥൈവ ച അശ്വിനൌ ച മഹാത്മാനൌ മരുതഃ സർവയേവ ച സിദ്ധിം സർവാണി ഭൂതാനി ഭൂതാനാഞ്ചൈവ യഃ പ്രഭുഃ ദാസ്യന്തി മമ യേ ചാന്യേ ഹ്യദൃഷ്ടാഃ പഥിഗോചരാഃ തദുന്നസം പാണ്ഡുരദന്തമവ്രണം ശുചിസ്മിതം പത്മപലാശലോചനം ദ്രക്ഷ്യേ തദാര്യാവദനം കദാൻവഹം പ്രസന്നതാരാധിപതുല്യദർശനം ക്ഷുദ്രേണ പാപേന നൃശംസകർമ്മണാ സുദാരുണാലംകൃതവേഷധാരിണാ ബലാഭിഭൂതാ ഹ്യബലാ തപസ്വിനി കഥം നു മേ ദൃഷ്ടിപഥേദ്യ സാ ഭവേത്. ഇത്യാർഷേ ശ്രീമദ് രാമായണേ വാൽമീകീയേ ആദികാവ്യേ സുന്ദരകാണ്ഡേ ത്രയോദശ സർഗഃ. അഥ ചതുർദശ സർഗഃ. സ മുഹൂർത്തമിവ ധ്യാത്വാ മനസാ ചാധിഗമ്യതാം അവപ്ലുതോ മഹാതേജാഃ പ്രാകാരം തസ്യ വേശ്മനഃ സതു സംഹൃഷ്ട സർവാംഗഃ പ്രാകാരസ്ഥോ മഹാകപിഃ പുഷ്പിതാഗ്രാൻ വസന്താദൌ ദദർശ വിവിധാൻ ദ്രുമാൻ സാലാൻ അശോകാൻ ഭവ്യാംശ്ച ചമ്പകാംശ്ച സുപുഷ്പിതാൻ ഉദ്ദാലകാൻ നാഗവൃക്ഷാൻ സോതാൻ കപിമുഖാനപി അഥാംബ്രവണസഞ്ഛന്നാൻ ലതാശതസമാവൃതാൻ ജ്യാമുക്ത ഇവ നാരാചഃ പുപ്രുവേ വൃക്ഷവാടികാം സപ്രവിശ്യ വിചിത്രാം താം വിഹഗൈരഭിനാദിതാം രാജതൈഃ കാഞ്ചനൈശ്ചൈവ പാദപൈഃ സർവതോവൃതാം വിഹഗൈർമൃഗസംഘൈശ്ച വിചിത്രാം ചിത്രകാനനാം ഉദിതാദിത്യസങ്കാശാം ദദർശ ഹനുമാൻ കപിഃ വൃതാം നാനാവിധൈഃ വൃക്ഷൈഃ പുഷ്പോപകഫലോപകൈഃ കോകിലൈഃ ഭൃംഗരാജൈശ്ച മത്തൈഃ നിത്യനിഷേവിതാം. പ്രഹൃഷ്ടമനുജേ കാലേ മൃഗപക്ഷിസമാകുലേ മത്തപർഹിണസംഘുഷ്ടാം നാനാദ്വിജഗണായുതാം മാർഗമാണോ വരാരോഹാം രാജപുത്രീം അനിന്ദിതാം സുഖപ്രസുപ്താൻ വിഹഗാൻ ബോധയാമാസ വാനരഃ ഉത്പതദ്ഭിഃ ദ്വിജഗണൈഃ പക്ഷൈഃ സാലാഃ സമാഹതാഃ അനേകവർണാ വിവിധ മുമുചുഃ പുഷ്പവൃഷ്ടയഃ പുഷ്പാവകീർണഃ സുശുഭേ ഹനുമാൻ മാരുതാത്മജഃ അശോകവനികാമധ്യേ യഥാ പുഷ്പമയോ ഗിരിഃ ദിശഃ സർവാഃ പ്രധാവന്തം വൃക്ഷഷണ്ഡഗതം കപിം ദൃഷ്ട്വാ സർവാണി ഭൂതാനി വസന്ത ഇതി മേ നിരേ. വൃക്ഷേഭ്യഃ പതിതൈഃ പുഷ്പൈഃ അവകീർണാ പൃഥഗ്വിധൈഃ രരാജ വസുധ തത്ര പ്രമദേവ വിഭൂഷിത തരസ്സിന തേ തരവഃ തരസാഭിപ്രകമ്പിതാഃ. കുസുമാനി വിചിത്രാണി സസൃദുഃ കപിനാ തദാ നിർധൂതപത്രശിഖരാഃ शीर्णपुष्पफलाद्रुमाः निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः हनूमता वेगवता कम्पितास्ते नगोत्तमाः पुष्पपर्णफलान्यासु मुमुचुः पुष्पशालिनः विहङ्गसङ्घैः हीनास्ते स्कन्धमात्राश्रयाद्रुमाः बभूवुरगमास्सर्वे मारुतेनेव निर्धुताः निर्धूतकेशी युवतिः यथा मृदितवर्णका निष्पीतसुभदन्तोष्ठी नखैः दन्तैश्च वक्षता तथा लाङ्गोलहस्तैश्च चरणाभ्याञ्च मर्दिता बभूवासोकवनिका प्रभग्नवरपादपा महालतानां दामानि व्यधमत्तरसा कपिः यथा प्रावृषिविन्ध्यस्य मेघजालानि मारुतः स तत्र मणिभूमिश्च राजतीश्च मनोरमाः तथा काञ्चनभूमिश्च ददर्श विचरन् कपिः वापीश्च विविधाकाराः पूर्णाः परमवारिणा महार्हैः मणिसोपानैः उपपन्नास्ततस्ततः मुक्ताप्रवालशिखताः स्फाटिकान्तरकुट्टिमाः काञ्चनैः तरुभिः चित्रैः तेरजैः उपशोभिताः फुल्लपद्मोत्पलवनाः चक्रवाकोपकूजिताः नत्यूहरुतसङ्घुष्टा हंससारसनादिताः दीर्घाभिः द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः लताशतैरवतताः सन्तानकुसुमावृताः नानागुल्मावृतघनाः करवीरकृतान्तराः ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिं विचित्रकोटं कोटैश्च सर्वतः परिवारितं शिलागृहैः अवततं नानावृक्षैः समावृतं ददर्शहरिशार्दूलो रम्यं जगतिपर्वतं ददर्श च नगात्तस्मात् नदीं निपतितां कपिः अङ्कादिव समुत्पत्त्य प्रियस्य पतितां प्रियां जले निपतिताग्रैश्च पादपैरुपशोभितां वार्यमाणामिवक्रुद्धां प्रमदां प्रियबन्धुभिः पुनरावृत्ततोयाञ्च ददर्श स महाकपिः प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थितां तस्यादोरात् सपद्मिन्यो नानाद्विजगणायुताः ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः कृत्रिमां दीर्घिकां चापि पूर्णां सीतेन वारिणा मणिप्रवरसोपानां मुक्ता शिकतशोभितां विविधैः मृगसङ्घैश्च विचित्रां चित्रकाननां प्रासादैः सुमहद्भिश्च निर्मितैः विश्वकर्मणा काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृतां ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः लताप्रतानैः बहुभिः पर्णैश्च बहुभिर्वृतां काञ्चनीं शिंसुपामेकां ददर्श हरियूथपः वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः सोपस्यद्भूमिभागांश्च नखप्रस्रवणानि च सुवर्णवृक्षानपरां ददर्श शिखिसन्निभान् तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः अमञ्जत तदा वीरः काञ्चनोऽस्मीति वानरः तां काञ्चनैः तरुगणैः मारुतेन च वीजितां किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् सपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवां तामारुह्य महाबाहुः शिंसुपां पर्णसंवृतां इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसां यतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया अशोकवनिकाजेयं दृढं रम्या दुरात्मनः चम्पकैः चन्दनैश्चापि वकुलैश्च विभूषिता इयञ्च नलिनी रम्या द्विजसङ्घनिषेविता इमां सा राममहिषी नोनमेष्यति जानकी सा रामा राममहिषी राघवस्य प्रिया सती वनसञ्चारकुशला ध्रुवमेष्यति जानकी अथवा मृगशावाक्षी वनस्यास्य विचक्षणा वनमेष्यति सार्येह रामचिन्तानुकर्षिता रामशोकाभिसन्तप्ता सा देवी वामलोचना वनवासे रता नित्यं येष्यते वनचारिणी वनेचराणां सततं नूनं स्पृहयते पुरा रामस्य दयिता भार्या जनकस्य सुता सती सन्ध्याकालमनास्यामा ध्रुवमेष्यति जानकी नदीं चेमां शिवजलां सन्ध्यार्धे वरवर्णिनी तस्याश्चाप्यनुरूपेयं अशोकवनिकाशुभा शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता यदि जीवति सा देवी ताराधिप निभानना आगमिष्यति सावश्यम् इमां शिवजलां नदीं एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीं अवेक्षमाणश्च तदर्श सर्वं सुपुष्पिते पर्णघने निलीनः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुंदरकांडे चतुर्दशसर्ग अथ पञ्चदशसर्गः सवीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीं अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत सन्तानकलताभिश्च पादपैरुपशोभितां दिव्यगन्धरसोपेतां सर्वतः समलङ्कृतां तां स नन्दनसङ्काशां मृगपक्षिभिः आवृतां हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनां काञ्चनोत्पलपद्माभिः वापीभिरुपशोभितां बह्वासनकुथोपेतां बहुभूमिगृहायुतां सर्वर्तुकुसुमैः रम्यां फलवद्भिश्च पादपैः पुष्पितानामशोकानां श्रिया सूर्योदयप्रभां प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् विनिष्पतद्भिस्यतशः चित्रैः पुष्पावतंसकैः आमूलपुष्पनिचितैः अशोकैः शोकनाशकैः पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीं कर्णिकारैः कुसुमितैः किंसुकैश्च सुपुष्पितैः सदेशः प्रभया तेषां प्रदीप्त इव सर्वतः पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः नीलाञ्जननिभाः केचित् तत्राशोका सहस्रशः नन्दनं विभुदोद्यानं चित्रं चैत्ररथं यथा अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतं द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतं पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा सर्वर्तुपुष्पैः निचितं पादपैः मधुगन्धिभिः नानानिनादैः उद्यानं रम्यं मृगगणैः द्विजैः अनेकगन्धप्रवहं पुण्यगन्धं मनोरमं शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् अशोकवनिकायां तु तस्यां वानरपुङ्गवः स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् मध्ये स्तम्भसहस्रेण स्थितम् कैलासपाण्डुरम् प्रवाळकृतसोपानम् तप्तकाञ्चनवेदिकम् मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया विमलम् प्रांशुभावत्वात् उल्लिखन्तमिवाम्बरम् ततो मलिनसंवीताम् राक्षसीभिः समावृताम् उपवासकृशाम् देनाम् निःस्यसन्तीम् पुनः पुनः ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् पिनद्धाम् धूमजालेन शिखामिव विभावसोः पीतेनैकेन संवीताम् क्लिष्टेनोत्तमवाससा सपङ्कामनलङ्काराम् विपद्मामिव पद्मिनीम् व्रीळिताम् दुःखसन्तप्ताम् परिम्लानाम् तपस्विनीम् ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् अश्रुपूर्णमुखीम् दीनाम् कृशाम् अनशनेन च शोकध्यानपराम् दीनाम् नित्यम् दुःखपरायणाम् प्रियम् जनमपश्यन्तीम् पश्यन्तीम् राक्षसीगणम् स्वगणेन मृगीम् हेनाम् स्वगणाभिवृतामिव नीलनागाभया वेण्या जघनम् गतयैकया नीलया नेरदापाये वनराज्या महीमिव सुखारहाम् दुःखसन्तप्ताम् व्यसनानामकोविदाम् ताम् समीक्ष्य विशालाक्षीम् अधिकम् मलिनाम् कृशाम् तर्कयामास सीतेति कारणैरुपपादिभिः ह्रियमाणा तदा तेन रक्षसा कामरूपिणा यथा रूपा हि दृष्टा सा तथा रूपेयमङ्गना पूर्णचन्द्राननाम् शुभ्रूम् चारुवृत्तपयोधराम् कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः ताम् नीलकेशीम् बिम्बोष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् श्वेताम् पद्मपलाशाक्षीम् मन्मथस्य रतिम् यथा इष्टाम् सर्वस्य जगतः पूर्णचन्द्रप्रभामिव भूमौ सुतनुमासीनाम् नियतामिव तापसीम् निःश्वासबहुळाम् भीरुम् भुजगेन्द्रवधूमिव शोकजालेन महता व्यततेन नराजतीम् संसक्ताम् धूमजालेन शिखामिव विभावसोः ताम् स्मृतीमिव सन्दिग्धाम् रुद्धिम् निपतितामिव विहतामिव च श्रद्धाम् आशाम् प्रतिहतामिव सोपसर्गाम् यथासिद्धिम् बुद्धिम् सकलुषामिव अभूतेनापवादेन कीर्तिम् निपतितामिव रामोपरोधव्यथिताम् रक्षोहरणकर्षिताम् अबलाम् मृगशावाक्षीम् वेक्षमाणाम् ततस्ततः बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा वदनेनाप्रसन्नेन निःस्यसन्तीम् पुनः पुनः मलपङ्कधराम् दीनाम् मण्डनार्हाम् अमण्डिताम् प्रभाम् नक्षत्रराजस्य कालमेघैरिवावृताम् तस्य सन्दिदिहे बुद्धिः मुहुःसीताम् निरीक्ष्यतु आम्नायानामयोगेन विद्याम् प्रसिथिलामिव दुःखेन बुबुधे सीताम् हनुमान् अनलङ्कृताम् संस्कारेण यथा हीनाम् वाचमर्धान्तरङ्गताम् ताम् समीक्ष्य विशालाक्षीम् राजपुत्रीमनिन्दिताम् तर्कयामास सीतेति कारणैः उपपादिभिः वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् तान्याभरणजालानि शाखाशोभीञ्जलक्षयत् सुकृतौ कर्णवेष्टौ च स्वदंष्ट्रौ च सुसंस्थितौ मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च श्यामानिचिरयुक्तत्वात् तथा संस्थानवन्ति च तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्। तत्र यान्यवहीनानि तान्यहं नोपलक्षये, यान्यस्य नावहीनानि तानीमानि न संशयः। पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः। भूषणानि च मुख्यानि दृष्टानि धरणीतले, अनयैवापविद्धानि स्वनवन्ति महान्ति च। इदं चिरगृहीतत्वात् वसनं क्लिष्टवत्तरं, तथापि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्। इयं कनकवर्णाङ्गी रामस्य महिषीप्रिया, प्रणष्टापि सती यास्य मनसो न प्रणश्यति। इयं सा यत्कृते रामः चतुर्भिः परितप्यते, कारुण्येन आन्द्रुसंस्येन शोकेन मदनेन च। स्त्रीप्रणष्टेति कारुण्यात् आश्रितेत्यान्द्रुसंस्यतः, पत्रीनष्टेति शोकेन, प्रियेति मदनेन च। अस्या देव्या यथा रूपम् अङ्गप्रत्यङ्गसौष्ठवम्, रामस्य च यथा रूपम् तस्येयमसिते क्षणा। अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम्, तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति। दुष्करं कृतवान् रामो हीनो यदनया प्रभुः, धारयत्यात्मनो देहं न शोके नावसीदति। दुष्करं कुरुते रामो य इमां मत्तकासिनीं, सीतां विना महाबाहुः मुहूर्तमपि जीवति। एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः, जगाम मनसा रामं प्रशशंस च तं प्रभुम्। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुंदरकांडे पंचदश सर्गः। अथ श्रीमद् सुंदरकांडे षोडश सर्गः। प्रशिष्यतु प्रशस्तव्यां सीतां तां हरिपुङ्गवः, गुणाभिरामं रामञ्च पुनश्चिन्तापरो भवत्। समुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः, सीतामाश्रित्य तेजस्वी हनुमान् विललापः। मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया, यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः। रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः, नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे। तुल्यशीलवयो वृत्तां तुल्याभिजनलक्षणां, राघवोऽर्हति वैदेहीं तं चेयमसिते क्षणा। तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियं, जगाम मनसा रामं वचनं चेदमब्रवीत्। अस्या हेतोः विशालाक्ष्या हतो वाली महाबलः, रावणप्रतिमो वीर्ये कबन्धश्च निपातितः। विराधश्च हतसंख्ये राक्षसो भीमविक्रमः, वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः। चतुर्दशसहस्राणि रक्षसां भीमकर्मणां, निहतानि जनस्थाने शरैरग्निशिखोपमैः। खरश्च निहतसंख्ये त्रिशिराश्च निपातितः, दोषणश्च महातेजा रामेण विदितात्मना। ऐश्वर्यं वानराणाञ्च दुर्लभं वालिपालितम्, अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम्। सागरश्च मयाक्रान्तः श्रीमान् नदनदीपतिः, अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता। यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्, अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः। राज्यं वा त्रिषु लोकेषु सेता वा जनकात्मजा त्रैलोक्यराज्यं सकलं सेता या नाप्रियात्कलां इयं सा धर्मशीलस्य मैथिलस्य महात्मनः सुता जनकराजस्य सेता भर्तृदृढव्रता उत्थिता मेदिनीं भित्त्वा क्षेत्रे फलमुखक्षते पद्मरेणुनिभैः कीर्णा शुभैः केदारपंसुभिः विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः सृषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः इयं सा दयिता भार्या राक्षसी वशमागता सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वरं सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता या परां भजते प्रीतिं वनेऽपि भवने यथा सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी सहते यातनामयताम् अनर्थानामभागिनी इमां तुशीलसम्पन्नां द्रष्टुमर्हति राघवः रावणेन प्रमथितां प्रपामिव पिपासितः अप्यानोनं पुनर्लाभात् राघवः प्रीतिमेष्यति राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीं कामभोगैः परित्यक्ता हेना बन्धुजनेन च धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् एकस्थहृदयानोनं राममेवानुपश्यति भर्ता नाम परन्नार्या भूषणं भूषणादपि एषा तु रहिता तेन भूषणार्हा अनशोभते दुष्करं कुरिते रामो हीनो यदनया प्रभुः धारयत्यात्मनो देहं न दुःखेन अवसीदति इमावसितकेशान्तां शतपत्रनिभेक्षणां सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः क्षितिक्षमा पुष्करसन्निभाक्षीयारक्षिता राघवलक्ष्मणाभ्यां साराक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना सहचररहितेव चक्रवागी जनकसुता कृपणां दशां प्रपन्ना अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः हिमव्यपायेन च मन्दरश्मिः अभ्युत्थितो नैकसहस्ररश्मिः इत्येवमर्धं कपिरन्ववेक्ष्य शीतेयमित्येव निविष्टबुद्धिः संसृत्य तस्मिन् निशसादवृक्षे बलीहरीणां वृषभस्तरस्वी इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्यसुन्दरकाण्डे षोडशः सर्गः अथ सप्तदशः सर्गः ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयं प्रजगामनभश्चन्द्रो हंसो नीलमिवोदकं साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः चन्द्रमा रश्मिभिः सेतैः शिशेवे पवनात्मजम् स ददर्श ततस्येतां पूर्णचन्द्रनिभाननां शोकभारैरिवन्यस्तां भारैर्नावमिवाम्भसि दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः स ददर्श्याविदूरस्था राक्षसीर्घोरदर्शनाः एकाक्षीमेककर्णाञ्च कर्णप्रावरणां तथा अकर्णां शङ्कुकर्णाञ्च मस्तकोच्छासनासिकाम् अतिकायोत्तमाङ्गीञ्च तनुदीर्घशिरोधरां ध्वस्तकेशीं तथा केशीं केशकम्बलधारिणीं लम्बकर्णललाटाञ्च लम्बोदरपयोधरां लम्बोष्ठीं चुबुकोष्ठीञ्च लम्बास्यां लम्बजानुकां ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा कराळां भुग्नवक्त्राञ्च पिङ्गाक्षीं विकृतानां विकृताः पिङ्गळाः काळीः क्रोधनाः कलहप्रियाः कालायसमहासोलकूटमुद्गरधारिणीः वराहमृगशार्दूलमहिषाजशिवामुखीः गदोष्ट्रहयपादीश्च निखातशिरसोपराः एकहस्तैकपादाश्च खरकर्ण्यस्य कर्णिकाः गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथा पराः अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः गजसन्निभनासाश्च ललाटोच्छ्यासनासिकाः हस्तिपादा महापादा गोपादाः पादचूलिकाः अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरी अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा अजामुखीः हस्तिमुखीः गोमुखीः सोकरीमुखीः हयोष्ट्रकरवक्त्राश्च राक्षसीर्घोरदर्शनाः सोलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः कराळाः धूम्रकेशीश्च राक्षसीर्विकृताननाः पिबन्ती सततं पानं सदा मांससुराप्रियाः मांसशोणितदिग्धाङ्गीः मांसशोणितभोजनाः ताददर्शकपिश्रेष्ठो रोमहर्षणदर्शनाः स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिं तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दितां लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजां निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजां क्षीणपुण्यां च्युतां भौमौ तारां निपतितामिव चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गतां भूषणैः उत्तमैः हेनां भर्तृवात्सल्यभूषणां राक्षसाधिपसमृद्धां बन्धुभिश्च विनाकृतां वियूथां सिंहसमृद्धां बद्धां गजवधूमिव चन्द्ररेखाम्पयोदान्ते शारदाभ्रैरिवावृतां क्लिष्टरूपामसंस्पर्शात् अयुक्तामिव वल्लकीं सीतां भर्तृवशे युक्तां अयुक्तां राक्षसीवशे अशोकवनिकामध्ये शोकसागरमाप्लुतां ताभिः परिवृतां तत्र सग्रहामिव रोहिणीं ददर्श हनुमान् देवीं लतामकुसुमामिव सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता मृणाळी पङ्कदिग्धेव विभाति न विभाति च मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीं संवृतां मृगशापाक्षीं ददर्श हनुमान् कपिः तां देवीं दीनवदनाम् अदीनां भर्तृतेजसा रक्षितां स्वेन शीलेन सीतामसितलोचनां तां दृष्ट्वा हनुमान् सीतां मृगशाभनिभेक्षणां मृगकन्यामिवत्रस्तां वेक्षमाणां समन्ततः दहन्तीमिव निःश्यासैः वृक्षान् पल्लवधारिणः सङ्घातमिव शोकानां दुःखस्योर्मिविवोत्थितां तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीं प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीं हर्षजानि च शोश्रूणि तां दृष्ट्वा मदिरेक्षणां मुमोच हनुमांस्तत्र नमश्चक्रे च राघवं नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् सीतादर्शनसंहृष्टो हनुमान् संहृतोऽभवत् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः अथ अष्टादशः सर्गः तथा विप्रेक्षमाणस्य वनं पुष्पितपादपं विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत् षडङ्गवेदविदुषां क्रतुप्रवरयाजिनां शुश्रावब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः प्राबुध्यत महाबाहुः दशग्रीवो महाबलः विबुध्यतु यथाकालं राक्षसेन्द्रप्रतापवान् स्रस्तमाल्याम्बरधरो वैदेही मन्वचिन्तयत् भृशं नियुक्तस्तस्याञ्च मदनेरमदोत्कटः न सतं राक्षसः कामं शशाकात्मनि गूहितुं ससर्वाभरणैर्युक्तो बिभ्रत् श्रियमनुत्तमाम् ताम नगैर्बहुभिर्तुष्टां सर्वपुष्पफलोपगैः वृतां पुष्करिणीभिश्च नानापुष्पोपशोभितां सदा मदैश्च विहगैः विचित्रां परमाद्भुतां ईहामृगैश्च विविधैः दुष्टां दृष्टिमनोहरैः वीथिस्सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजन् महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः दीपिकाः काञ्चनीः काश्चित् जगृहुस्तत्र योषितः वालव्यजनहस्ताश्च तालवृन्तानि चापराः काञ्चनैरपि भृङ्गारैः जहुरुस्सलिलमग्रतः मण्डलाग्रान् बृशीश्चैव गृह्याण्याः पृष्ठतो ययुः काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी दक्षिणा दक्षिणेनैव तदा जग्राहपाणिना राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभं सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ निद्रामदपरीताक्ष्यो रावणस्योत्तमा स्त्रियः अनुजग्मुः पतिं वेरं घनं विज्जुल्लता इव व्याविद्धहारकेयूराः समामृदितवर्णकाः समागलितकेशान्ताः सस्वेदवदनास्तथा घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः स च कामपराधीनः पतिस्तासां महाबलः सीतासक्तमनामन्दो मदाञ्चितगतिर्बभौ ततः काञ्चीनिनादञ्च नूपुराणाञ्च निःस्वनं शुश्रावपरमस्त्रीणां स कपिर्मारुतात्मजः तञ्चाप्रतिमकर्माणम् अचिन्त्यबलपौरुषं द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः दीपिकाभिरनेकाभिः समन्तादवभासितं गन्धतैलावसिक्ताभिः ध्रियमाणाभिरग्रतः कामदर्पमदैर्युक्तं जिह्मतां रायते क्षणं समक्षमिव कन्दर्पम् अपविद्धसरासनं मथितामृतफेनाभम् अरतो वस्त्रमुत्तमं सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे तं पत्रविटपे लेनः पत्रपुष्पघनावृतः समीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे अवेक्षमाणस्तु ततो ददर्शकपिकुञ्जरः रोपयौवनसम्पन्ना रावणस्य वरस्त्रियः ताभिः परिवृतो राजा सुरूपाभिर्महायशाः तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनं क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः तेन विश्रवसः पुत्रः सदृष्टो राक्षसाधिपः वृतः परमनारीभिः ताराभिरवचन्द्रमाः तं ददर्श महातेजाः तेजोवन्तं महाकपिः रावणोऽयं महाबाहुः इति सञ्चिन्त्य वानरः सोऽयमेव पुरासेते पुरमध्ये गृहोत्तमे अवप्लुतो महातेजा हनुमान् मारुतात्मजः स तथाप्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् सतामसितकेशान्तां शुश्रोणीं संहतस्तनीं दिदृक्षुरचितापाङ्गीम् उपावर्ततरावणः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः अथ एकोनविंशः सर्गः तस्मिन्नेव ततः काले राजपुत्रीत्वनिन्दिता रूपयौवनसम्पन्नं भूषणोत्तमभूषितं ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपं प्रावेपतवरारोह प्रवाते कदली यथा आच्छाद्योदरमूरुभ्यां बाहुभ्यांच पयोधरौ उपविष्टा विशालाक्षी रुदंती वरवर्णिनी दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ददर्श देनां दुःखार्तां नावं सन्नामिवार्णवे असंवृता यामासीनां धरण्यां संसितव्रतां छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डितां मृणाली पङ्कतिद्धेव विभाति न विभाति च समीपं राजसिंहस्य रामस्य विदितात्मनः सङ्कल्पहयसंयुक्तैः यान्तीमिव मनोरथैः शुष्यन्तीं रुदतीं एकां ध्यानशोकपरायणां दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रतां वेष्टमानां तथाविष्टां पन्नगेन्द्रवधूमिव धूप्यमानां गृहेणेव रोहिणीं धूमकेतुना वृत्तशीलकुले जातां आचारवतिधार्मिके पुनः संस्कारमापन्नां जातामिव च दुष्कुले अभूतेनापवादेन कीर्तिं निपतितामिव आम्नायानामयोगेन विद्यां प्रसिथिलामिव सन्नामिव महाकीर्तिं श्रद्धामिव विमानितां पूजामिव परीक्षीणाम् आशां प्रतिहतामिव आयतीमिव विध्वस्ताम् आज्ञां प्रतिहतामिव देप्तामिव दिशङ्काले पूजामपहृतामिव पद्मिनीमिव विध्वस्ताम् हतसोरां चमूमिव प्रभामिव तमोध्वस्ताम् उपक्षीणामिवापगाम् वेदीमिव परामृष्टां शान्तामग्निशिखामिव पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् उत्कृष्टपर्णकमलां वित्रासितविहङ्गमां हस्तिहस्तपरामृष्टाम् आकुलां पद्मिनीमिव पतिशोकातुरां शुष्कां नदीं विश्रावितामिव परया मृजया हेनां कृष्णपक्षनिशामिव सुकुमारीं सुजातांगीं रत्नगर्भगृहोचितां तप्यमानामिवोष्णेन मृणालीमचिरोद्धृतां गृहीतामालितां स्तंभे योथपेन विनाकृतां निश्यसन्तीं सुदुःखार्तां गजराजवधूमिव एकया दीर्घया वीण्या शोभमानामयत्नतः नेलया नेरदापाये वनराज्या महीमिव उपवासेन शोकेन ध्यानेन च भयेन च परीक्षीणां कृशां देनां अल्पाहारां तपोधनं आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव भावेन रघुमुख्यस्य दशग्रीवपराभवं समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनां अनुव्रतां राममतीव मैथिलीं प्रलोभयामासवधाय रावणः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः। अथ विंशः सर्गः। सतां पतिव्रतां देनां निरानन्दां तपस्विनीं साकारैर्मधुरैर्वाक्यैः न्यदर्शयत रावणः। मां दृष्ट्वा नागनासोरु गोहमानास्तनोदरम् अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि कामये त्वां विशालाक्षि बहुमञ्जस्व मां प्रिये सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे। नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः व्यपसर्पतु तेऽसीते भयं मत्तः समुत्थितं स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमध्य वा एवञ्चैतदकामान् तु न त्वां स्पृक्ष्यामि मैथिली। कामं कामशरीरे मे यथा कामं प्रवर्ततां देवि नेह भयं कार्यं मयि विश्वसि प्रिये प्रणयस्य च तत्त्वेन मैवम्भूस्वकलालसा एकवेणी धराशय्या ध्यानं मलिनमम्बरं अस्थानेऽप्युपवासश्च नैतान्यौपैकानि ते विचित्राणि च माल्यानि चन्दनान्यगरूणि च विविधानि च वासांसि दिव्यान्याभरणानि च महारहाणि च पानानि शयनान्यासनानि च गीतं नृत्तञ्च वाद्यञ्च लभमां प्राप्य मैथिली स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणं मां प्राप्य हि कथं नु स्याः त्वमनर्ह सुविग्रहे यदन्ते चारु संजातं यौवनं व्यतिवर्तते यदतीतं पुनर्नैति श्रोतः शीघ्रमपामिव त्वां कृत्वोपरतो मन्ये रूपकर्ता सविश्वसृट्टु नहि रूपोपमात्वन्या तवास्ति सुभदर्शने त्वां समासाद्य वैदेहि रूपयौवनशालिनीं कः पुमानतिवर्त्येत साक्षादपि पितामहः यद्यत् पश्यामि ते गात्रं श्वेतां सुसदृशानने तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते भव मैथिली भार्या मे मोहमेनं विसर्जय बह्वीनामुत्तमस्त्रीणाम् आहृतानामितस्ततः सर्वासामेव भद्रन्ते ममाग्रबहिषी भव लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै तानि मे भीरु सर्वाणि राज्यं चैतदहञ्चते विचित्य पृथिवीं सर्वां नाना नगरमालिनीं जनकाय प्रदास्यामि तव हेतोर्विलासिनि नेह पश्यामि लोकेन्यं यो मे प्रतिबलो भवेत् नेह पश्यामि लोकेन्यं यो मे प्रतिबलो भवेत् पश्य मे सुमहद्वीर्यम् अप्रतिद्वन्द्वमाहवे असकृत् संयुगे भग्ना मया विमृतितध्वजाः अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः इच्छया क्रियतामद्य प्रतिकर्मतवोत्तमं सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने भुङ्क्ष्व भोगान् यथा कामं पिब भीरु रमस्व च यथेष्टञ्च प्रयच्छत्वं पृथिवीं वा धनानि च ललस्वमयि विश्रब्धा धृष्टमाज्ञापयस्व च मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव रुद्धिं ममानुपश्यत्वं श्रियं भद्रे यशश्च मे किं करिष्यसि रामेण स्वभगे चेरवाससा निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः व्रती स्थण्डिलशायी च शङ्के जेवति वा न वा नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते पुरोबलाकैरसितैः मेघैर्ज्योत्स्नामिवावृतां न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः हिरण्यकशिपुः कीर्तिम् इन्द्रहस्तगतामिव चारुस्मिते चारुदति चारुनेत्रे विलासिनि मनोहरसि मे भीरु सुपर्णः पन्नगं यथा क्लिष्टकौसेयवसनां तन्वीमप्यनलङ्कृतां त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि मम ह्यसितकेशान्ते त्रैलोक्यप्रवरास्त्रियः तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा यानि वैश्रवणे शुभ्रु रत्नानि च धनानि च तानि लोकांश्च शुश्रोणि माञ्च भुङ्क्ष्व यथा सुखं न रामस्तपसा देवि न बलेन न विक्रमैः न धनेन मया तुल्यः तेजसा यशसापि वा पिब విహర రమస్వ భుంక్ష్వ భోగాన్ ధన నిచయం ప్రదిశామి మేదినీంచ మయి లల లలనే యథాసుఖం త్వం త్వయి చ సమేత్య లలంతు బాంధవాస్తే. కుసుమిత తరుజాల సంతతాని భ్రమరయుతాని సముద్ర తీరజాని కనక విమలహార భూషితాంగి విహరమయా సహ భీరు కాననాని. ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆది కావ్య సుందరకాండే వింశ సర్గః.